एवं मिसुतं एकं समयं भगवा सावध्यं विहरति जेतवने अनाथपिण्डिकस्सरामि अथ को वयंतरा देवताभिकंताय रत्या अभिकंतवन्ना केवलकंपं चेतवनं गोभासित्वा येन भगवातेनोपसंगमी उपसंगमित्वा भगवन्तं अभिवादित्वा एकमन्तं अट्ठासि एकमन्तं थिताखोसा देवता भगवन्तं गाथाय च भासि बहुदेवा मनुसाच मंगलानि अचिन्तयो अगंखमानसुत्थानं ब्रूहि मंगलं उत्तमं असेवनाच बालानं पंडितानं च सेवना पूजाच पूजनीयानं पतिरूपदेशवाचोच पुब्बे च कथपयता आतसमादिचेतं एतं मंगलमुत्तमं बाहो सच्चं च सीपचं विनुयोचं सुसखितो सुभाषिता च वाचा एतं मंगलमुत्तमं माता पितुः पठ्ठानं पुत्रतारस्य संघवो अनाकुलाचकं मन्ता एतं मंगलमुत्तमं दानं च धम्मचर्याचं आतपानं च संगहो अनवज्जानि कम्मानि एतं मंगलमुत्तमं आरति वीरति पापा सपानं च सयमो अपमादे चुधम्मेषु एतं मंगलमुत्तमं गार्वो च निवातो च संतुष्टि च कतेयता कालेन धम्मसवनं एतं मंगलमुत्तमं खन्ति सचोवच सत्ता समनानं च दर्शनं कालेन धम्मसाकच्छा एतं तपोच ब्रह्मचर्याच अर्यसच्चानदर्शनं निब्बानसच्चक्रियाच एतं मंगलमुत्तमं हुटुसलो चित्तं पुण्यसनकम्पति अशोकं विरजन् खेमन् एतादिशानिकत्वानं सपथमपराजिता सबद्ध सुन्धि गच्छन्ति तन्ते सन् मङ्गलमुत्तमम्।